इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। ह्यः सम्पन्नस्य लोकसभा निर्वाचनस्य षष्ठम चरणे रात्रौ सार्ध एकादश वादन पर्यन्तम् एकषष्ठि प्रतिशताद् अधिकं मतदानं जातम्। षड् राज्येषु द्वयोः केन्द्रशासित प्रदेशयोः च अष्टपञ्चाशत् संसदीय क्षेत्रेषु मतदानं शान्तिपूर्णरीत्या अभवत्। जम्मूकश्मीरस्य अनन्तनाग राजौरी संसदीय क्षेत्रे चतुःपञ्चाशत् प्रतिशताद् अधिकं मतदानं जातम्, यत् विगत पञ्चत्रिंशत् वर्षेषु सर्वाधिकं मतदानम् अस्ति। बिहारे पञ्चाशत् प्रतिशताद् अधिकं मतदानं जातम्, हरियाणायां षष्ठि प्रतिशतम्, झारखण्डे चतुःषष्ठि प्रतिशतम्, दिल्ल्याम् अष्टपञ्चाशत् प्रतिशतं च मतदानं जातम्। ओडिशायां नवषष्ठि प्रतिशताद् अधिकं मतदानं जातम्, उत्तरप्रदेशे च चतुर्पञ्चाशत्, पश्चिमबंगे च नवसप्तति प्रतिशतात् अधिकं मतदानम् अभवत्। ईवीएम इत्यस्मिन् येषां प्रमुखाभ्यर्थिनां भाग्यं पिहितं तेषु प्रमुखाभ्यर्थिनः सन्ति भाजपादलस्य वरिष्ठनेतारः धर्मेन्द्रप्रधानः, मेनका गांधी, मनोहरलालखट्टरः, मनोज तिवारी, तथा च कांग्रेसनेतारः दीपेन्द्रसिंहहुड्डा, कुमारी सैलजा, राजबब्बरः, कन्हैया कुमार च। समाजवादी पार्टी नेता धर्मेन्द्र यादवः, पीडीपी प्रमुख महबूबा मुफ्ती च सन्ति। तत्रैव तृतीय चरणस्य ओडिशा विधानसभायाः द्विचत्वारिंशत् आसनानां कृते अपि मतदानम् अभवत्, यस्मिन् सप्तति प्रतिशतात् अधिकं मतदानम् रात्रौ सार्ध एकादश वादनपर्यन्तं जातम्। देशस्य कतिपयेषु क्षेत्रेषु उष्णता आसीत् चेदपि मतदातारः उत्साहेन मताधिकारस्य प्रयोगं कृतवन्तः। मतदाता मतदानस्य विवरणं निर्वाचनायोगेन ह्यः लोकसभानिर्वाचनस्य प्रथम पञ्चचरणानां मतदातॄणां संख्या प्रकाशिता। उक्तं च यत् मतदात्री मतदानस्य विवरणम् अभ्यर्थिभिः सह सदैव उपलब्धाः आसन्। तत्र सूचितं यत् देशे लोकसभानिर्वाचनस्य प्रथम पञ्चचरणपर्यन्तं द्विसप्ततिलक्षाधिकपञ्चाशत्कोटिजनाः स्वीय मताधिकारस्य प्रयोगं कृतवन्तः। आयोगेन प्रदत्तानां तथ्यानुसारि लोकसभानिर्वाचनस्य प्रथमचरणस्य द्विपञ्चाशत्सहस्राधिक एकादशकोटिजनाः, द्वितीयचरणस्य अष्टपञ्चाशल्लक्षाधिक दशकोटिजनाः, तृतीयचरणस्य द्वित्रिंशल्लक्षाधिक एकादशकोटिजनाः मतदानं कृतवन्तः। चतुर्थे चरणे चतुर्विंशतिलक्षाधिकद्वादशकोटितोऽप्यधिकाः जनाः मतदानं कृतवन्तः। पञ्चमे चरणे सप्तपञ्चाशल्लक्षाधिकपञ्चकोटितोऽप्यधिकाः जनाः स्वीयमताधिकारस्य प्रयोगं कृतवन्तः। गतसायं गुजरातस्य राजकोटे टीआरपी गेम जोन इत्यत्र एकस्मिन् अग्निकाण्डे अधुना यावत् षड्विंशतिः जनाः मृताः इति कथ्यते, तेषु नव बालकाः सन्ति। अस्याः घटनायाः प्रमुखकारणान्वेषणाय विशेष अन्वेषणदलं एसआईटी इति निर्मितम्। राजकोट आरक्षि आयुक्तः राजू भार्गवः सूचितवान् यत् राजकोटस्य सर्वेषां गेम जोन इत्येतेषां पिहितुम् आदेशः प्रदत्तः अस्ति। ऋतुविभागेन प्रतिपादितं यत् बंगालप्रदेशस्य पूर्व मध्य उत्पत्यकायाः पार्श्वे चक्रवातीय झंझावातस्य आशंका विद्यते। इति वार्ताः।